इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका कामना झा। आदौ मुख्य वार्ताः। समग्र राष्ट्रम् अद्य संविधान दिवसम् आमान्यति। अंगीकृतस्य संविधानस्य अद्य 75वां वार्षिक दिवसो वर्तते। प्रधानमंत्री सर्वोच्च न्यायालये आयोजितं संविधान दिवस समारोहं संबोधितवान्। राष्ट्रपतिः द्रौपदी मुर्मुः संसद उभय सदने संबोधयन्ति। नागरिकैः आग्रहं कृतवती यत् ते संवैधानिक आदर्शनाम् अनुपालनं कुर्युः इति। केन्द्र प्रशासनेन 15 राज्येभ्यः आपत्ति शमनाय क्षमता निर्माण परियोजनाभ्यः च 15+1,100,000,000,000 रूप्यकाणि अनुमोदितानि। राष्ट्रपतिः द्रौपदी मुर्मुः मुंबईनगर्याम् 2018 नवंबर मासे 26 दिनांके जाते आतंकी आक्रमणे हुतिंगतेभ्यः वीरभटेभ्यः श्रद्धांजलिं समर्पितवती। कथितवती यत् भारतम् आतंकवादस्य शमनाय प्रतिबद्धम् अस्ति इति। अपि च देशेन अद्य राष्ट्रिय दुग्ध दिवसः आमान्यते। डॉक्टर वर्गीस कुरियन इत्यस्य अद्य 3+1,100,000 जयंती अस्ति, यो हि भारते श्वेत क्रान्तेः जनकः कथ्यते। अथ वार्ताः विस्तरेण। अंगीकृतस्य संविधानस्य अद्य 75वां वार्षिक सम्पूर्ति दिवसो वर्तते। प्रशासनेन अत्रावसरे अद्य आरभ्य एकवर्षपर्यन्तं प्रचल्यमानस्य समारोहस्य प्रारम्भः कृतः। अयं समारोहः समग्रदेशे आयोजते अवधेयं वर्तते यत् संविधानसभया 49-1900 वर्षे नवंबर मासस्य 26 दिनांके संविधानम् अंगीकृतम्। तत्पश्चातं 15+1900 वर्षे जनवरी मासस्य 26 दिनांके क्रियान्वितं जातम्। अत्रावसरे राष्ट्रपतिः द्रौपदी मुर्मुः संविधान सदनस्य केन्द्रीय कक्षे आयोजितं एकं भव्यं कार्यक्रमं संबोधितवती यत् भारतीय संविधानम् एकं जीवितं प्रगतिशीलं च ग्रन्थ रत्नं वर्तते, यस्य माध्यमेन भारतदेशेन सामाजिक न्याय समावेशी विकासयोः लक्ष्याः प्राप्ताः। एतद् अनन्तरं राष्ट्रपतिः जनैः आग्रहं कृतवती यत् ते संवैधानिक आदर्शनाम् अनुपालनं कुर्युः इति।
संविधान के प्रति युवाओं में उत्साह को देखता है, हम सब देश के भविष्य के प्रति आश्वस्त हो सकते हैं। मैं सभी देशवासियों से अनुरोध करती हूँ कि वे हमारे संवैधानिक आदर्शों को अपने आचरण में डालें, मूल कर्तव्य का पालन करें तथा वर्ष 2047 तक विकसित भारत के निर्माण के राष्ट्रीय लक्ष्य के प्रति समर्पण के साथ आगे बढ़े।
राष्ट्रपति ही अग्रे अवदत् यत् भारतीय संविधानस्य प्रस्तावनायां न्याय स्वतंत्रता समानता बंधुत्वानाम् आदर्शः समंगीकृताः। स्वकीय संबोधने राष्ट्रपति ही 15 महिला सदस्यानां योगदानम् अपि स्मृतवती। एतासां महिलानां संविधानसभायां महत्वपूर्णं भूमिकाः आसन्।
वुमेन लेड डेवलपमेंट की सोच को यथार्थ रूप देना सामाजिक न्याय के संवैधानिक आदर्शों को प्राप्त करने के लिए अनिवार्य है। नारी शक्ति बंधन अधिनियम द्वारा हमारे लोकतंत्र में महिला सशक्तिकरण के एक नए युग की शुरुआत की गई है।
एतदनु उपराष्ट्रपति ही जगदीप धनखड़ प्रोक्तवान यत् अयम् संविधानस्य 75वां दिवसः भविष्याय बृहत्तमं सोपानं वर्तते। इयं विश्वस्य बृहत्तमाय गतिशीलाय लोकतंत्राय महत्वपूर्णा उपलब्धिः विद्यते। अत्र अन्तरे लोकसभाध्यक्षः ओम बिरला निज संबोधने अकथयत् यत् भारतीय संविधानस्य देशस्य नागरिकाणां वर्षाणां तपसः योगदानस्य प्रतिभायः शक्यतेः च परिणाम विद्यते।
हमारा संविधान हमारे वर्षों की तप, त्याग, विद्वता, सामर्थ्य और क्षमता का परिणाम है। इसी केंद्रीय कक्ष में लगभग 3 वर्षों के कठिन परिश्रम के बाद उन्होंने देश की भौगोलिक और सामाजिक विविधताओं को एक सूत्र में बांधने वाला संविधान बनाया।
कार्यक्रमस्य वेलायां राष्ट्रपतिः एकस्याः स्मारक मुद्रायाः एकस्य प्रेष्य चिट्टिकायाः च अनावरणं कृतवती। अस्मिन् संविधान दिवसावसरे प्रधानमंत्री नरेन्द्र मोदी, केन्द्रीय मंत्रिणः, विपक्षदलस्य नेतारः, अन्ये च जनाः सम्मिलिताः अभवन्। प्रधानमंत्री अस्मिन् अवसरे समेभ्यः नागरिकेभ्यः शुभकामनाः प्रदत्तवान्। उक्तवान् च यत् संविधान राष्ट्रस्य मार्गदर्शकत्वेन अस्ति। तत्रैव नवदिल्ल्यां सर्वोच्च न्यायालये आयोजिते समारोहे भारतस्य मुख्य न्यायाधीशः राजीव खन्नः समारोहं सम्बोधितवान्। अवधेयं वर्तते यत् अद्य संविधान दिवसस्य 75वें वर्ष अवसरे राष्ट्रपतिः द्रौपदी मुर्मुः संस्कृत भाषायाम् अनूदिता संविधान प्रतिम विमोचितवती। संस्कृत वार्तायाः संस्करणम् इदम् इदानीम् आकाशवाणीतः प्रसार्यति। सममेव अयम् कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। राष्ट्रपतिः द्रौपदी मुर्मुः मुंबई नगर्याम् 2018 वर्षे नवंबर मासे 26 जाते आतंकी आक्रमणे हुतिंगतेभ्यः वीरभटेभ्यः श्रद्धांजलिं समर्पितवती। राष्ट्रपतिः एकस्मिन् सामाजिक संदेशपटले उक्तवती यत् राष्ट्रं तेभ्यः समग्रेभ्यः सुरक्षाकर्मिभ्यः नमनं समर्पयति ये देशवासिनां रक्षणार्थं निजप्राणान् अत्यजन्। अग्रे कथितवती यत् भारतम् आतंकवादस्य शमनाय प्रतिबद्धम् अस्ति इति। तत्रैव मुंबईनगर्यां महाराष्ट्रस्य राज्यपालः सीपी राधाकृष्णन् इत्येषः मुख्यमंत्री एकनाथ शिंदेः उपमुख्यमंत्रिणौ देवेन्द्र फडणवीसः अजीत पवारः च अद्य मुंबई आतंकी आक्रमणस्य 16वें वर्षे वीर सैनिकेभ्यः श्रद्धांजलिं समर्पितवन्तः। अस्मिन् एव दिवसे पाकिस्तान धारितेन लश्कर ए तैयबा इत्यनेन दशयुतेन आतंकी समूहेन आक्रमणं कृतं यस्मिन् 66+100 जनाः दिवंगताः 30 जनांश्च व्रणिताः अभवन्। देशेन अद्य राष्ट्रिये दुग्ध दिवसः आमान्यते। डॉक्टर वर्गीस कुरियन इत्यस्य अद्य 63वीं जयंती अवसरे यो हि भारते श्वेत क्रान्तेः जनकः कथ्यते। अत्रावसरे नवदिल्ल्यां मत्स्य पालन पशुपालन दुग्धोत्पादन मंत्रालयः एकं समारोहं आयोजितम्। एतस्मिन् समारोहे केन्द्रीय मत्स्य पशुपालन मंत्री राजीव रंजन सिंहः भागं स्वीकृतवान्। केन्द्र प्रशासनेन 15 राज्येभ्यः आपत्य शमनाय क्षमता निर्माण परियोजनाभ्यः च 15+1,00,000 करोड़ रूप्यकाणि अनुमोदितानि। केन्द्रीय गृहमन्त्रिणः अमित शाहस्य अध्यक्षतायाम् एकया उच्चस्तरीय समित्यः अस्मै कोषाय स्वीकृतिः प्रदत्ता। एषा समितिः 8 पूर्वोत्तर राज्येभ्यः 78+300 करोड़ रूप्यकाणि उत्तराखण्ड हिमाचल प्रदेशाभ्याम् 93+100 करोड़ रूप्यकाणि महाराष्ट्राय केरलाभ्याम् भूयो अपि 70 करोड़ रूप्यकाणि तमिलनाडु पश्चिम बंगालभ्याम् 500 करोड़ रूप्यकाणि आवंटितानि। निर्वाचन आयोगः अद्य राज्यसभायाः 6 आसनेभ्यः उपनिर्वाचनस्य घोषणां विहितवान्। येषु 3 आसनानि आन्ध्रप्रदेशस्य अस्ति। मुख्यवार्ताः पुनः एकवारम्। समग्र राष्ट्रम् अद्य संविधान दिवसम् आमान्यति। अंगीकृतस्य संविधानस्य अद्य 75वां वार्षिक दिवसो वर्तते। प्रधानमंत्री सर्वोच्च न्यायालये आयोजिते संविधान दिवस समारोहं संबोधितवान् इति वार्ताः।